श्रीगणेश प्रभावस्तुतिः ओमित्यादौ वेदविदोऽयं प्रवदन्ति ब्रह्माद्यायं लोकविधाने प्रणमन्ति योऽन्तर्यामी प्राणिगणानां हृदयस्थस्थं विघ्नेशं दुःखविनाशं कलयामि गङ्गागौरी शङ्करसन्तोषकवृतं गन्धर्वाळी गीतचरित्रं सुपवित्रम् यो देवानामादिरनादिर्जगदीशस्त्वं विघ्नेशं दुःखविनाशं कलयामि गच्छेत् सिद्धिं यन्मनुजापे कार्याणाङ्गं तापारं संश्रुतिसिन्धोर्यद्वेत्ता गर्वग्रन्थेर्यः किल भेत्ता गणराजस्तं विघ्नेशं दुःखविनाशं कलयामि नण्येत्युच्चैर्वर्लजपादौ पूजार्थं यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम् बीजं ध्यातुः पुष्टिदमाथर्वणवाक्यैस्तं विघ्नेशं दुःखविनाशं कलयामि पद्भ्यां पद्मश्रीमदहृद्भ्यां प्रत्युषे मूलाधारां भोरुहभास्वद्भानुभ्याम् योगी यस्य प्रत्यहमजपार्पणदक्षस्तं विघ्नेशं दुःखविनाशं कलयामि तत्त्वं यस्य श्रुतिगुरुवाक्यैरधिगत्य ज्ञानी प्रारब्धानुभवान्ते निजधाम शान्ता विद्या तत्कृतबोधस्वयमीयात्तं विघ्नेशं दुःखविनाशं कलयामि ये ये भोगालोकहितार्थाः सपुमर्था ये योगाः साध्यसु लोकाः सुकृतार्थाः ते सर्वे स्युर्यन्मनुजपतः पुरुषाणां तं विघ्नेशं दुःखविनाशं कलयामि नत्वा नित्यं यस्य पदाब्जं मुहुरर्थे निर्द्वैतात्माखण्डसुखस्याद्धतमोहः कामान् प्राप्नोतीति किमाश्चर्यमिदानीं तं विघ्नेशं दुःखविनाशं कलयामि मस्तप्रोत्यच्चन्द्रकिशोरं करवक्त्रं पुस्ताक्षस्रक्पाशश्रुणीस्फीतकराब्जम् शूर्पश्रोत्रं सुन्दरगात्रं शिवपुत्रं तं विघ्नेशं दुःखविनाशं कलयामि सिद्धान्तार्थां सिद्धिगणेशस्तुतिमेनां सुब्रह्मण्याह्वयसूर्युक्तां मनुयुक्तां उक्त्वा श्रुत्वापेक्षितकार्यं निर्विघ्नं मुक्त्वा मोहं बोधमुपेयात् तद्भक्तः इति श्रीसुब्रह्मण्ययोगिविरचिता श्रीगणेशमन्त्रप्रभावस्तुतिः।